इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको युवराज भट्टराई। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना प्रोच्यते यत् जीविका मेलकानि युवजनानां स्वप्नसिद्धेः माध्यमानि सन्ति जातानि। श्रीमोदी नवदिल्ल्याम् आयोजितं सप्तदश राष्ट्रिय जीविका मेलकं समबोधयत्। बिहार विधानसभा निर्वाचनस्य प्रथमचरणस्य प्रचारः तीव्रीभूतः। प्रधानमन्त्री श्रीनरेन्द्र मोदी समस्तीपुरे सम्बोधितवान् जनसभाम्। वित्तमन्त्री निर्मला सीतारामन् उक्तवती यत् जीएसटी इति वस्तुसेवा करव्यवस्था अधिक प्रभावशालिनी न्यायोचिता विकासाभिमुखी च करिष्यते। एतदर्थं त्रिदिवसीय अनुमोदन प्रक्रिया नवम्बर प्रथमायाम् आरप्स्यते। आन्ध्रप्रदेशे कर्नूल जनपदे दुरापन्नायां बस दुर्घटनायां विंशति जनाः मृतिंगताः, नैके च व्रणिताः सूच्यन्ते। अपि च भारतेन एशिया महाद्वीपीय युव क्रीडान्तर्गतं बहरीन देशे समायोजितायां कबड्डी प्रतियोगितायां विजितं सुवर्ण पदक द्वयम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री श्रीनरेन्द्र मोदी न्यगदत् यत् जीविका मेलकानि देशस्य युवकानां स्वप्नानां साकारीकरणस्य सशक्त माध्यमानि सन्ति जातानि। प्रधानमन्त्री एतत् सर्वं नवदिल्ल्याम् आयोजितस्य सप्तदश राष्ट्रिय जीविका मेलकस्य अवसरे प्रसारिते वीडियो सन्देशे प्रत्यपादयत्। एतस्मिन् अवसरे विभिन्न सर्वकारीय विभागेषु संघटनेषु च नवनियुक्तेभ्य 150,000+ युवकेभ्य नियुक्तिपत्राणि अपि वितरितानि। अस्मिन् अवसरे प्रधानमन्त्री किम् अवोचत् श्रृण्वन्तु तावत्।
मैं आप सभी को और आपके परिवारजनों को बहुत बहुत बधाई देता हूं। जीवन की इस नई शुरुआत के लिए मैं बहुत शुभकामनाएं देता हूं। साथियों, आपका ये उत्साह, परिश्रम करने की आपकी क्षमता, सपने साकार होने से पैदा हुआ आत्मविश्वास, इसके साथ जब देश के लिए कुछ कर गुजरने का जज्बा जुड़ेगा तो आपकी ये सफलता केवल व्यक्तिगत सफलता नहीं रहेगी, आपकी सफलता देश की सफलता बन जाएगी।
जीविका मेलकानि अद्य युवजनानां स्वप्न सम्पूर्तेः माध्यमाः जाताः सन्ति। स्टील इंडिया मिशन सन्निभाः उपक्रमाः युवजनेभ्य नूतन कौशल प्रशिक्षणं प्रयच्छन्ति। तत्रैव नेशनल करियर सर्विस प्लेटफॉर्म सदृशाः पोर्टल मञ्चाः तान् युवकान् नूतन सम्भावनाभिः साकं संयोजयन्ति। अस्माकं लक्ष्यमस्ति यत् प्रत्येकमपि युवजनेभ्य तेषां योग्यतानुगुणं जीविकाः प्राप्येरन्, येन ते विकसित भारतस्य निर्माणे स्वीयां भूमिकां पालयेयुः। अस्मिन् अवसरे प्रधानमन्त्रिणा विकसित भारत योजनायाः अपि प्रवर्तनं कृतम्, यस्याः अन्तर्गतं 35,000,000 युवकेभ्य जीविकोपपादनस्य लक्ष्यं स्थापितमस्ति। श्रृण्वन्तु तावत्।
नेशनल करियर सर्विस प्लेटफॉर्म जैसे इनिशिएटिव उन्हें नए अवसरों से भी जोड़ रहे हैं। मुझे बताया गया है कि इसके माध्यम से अब तक 7 करोड़ से अधिक वैकेंसीज, इसकी जानकारी युवाओं को दी जा चुकी है। युवाओं के लिए एक और बड़ा कदम है प्रतिभा सेतु पोर्टल। जो उम्मीदवार यूपीएससी की अंतिम सूची तक पहुंचे लेकिन सेलेक्ट नहीं हुए, उनकी मेहनत भी अब व्यर्थ नहीं जाएगी।
एषा योजना देशस्य युवकेभ्य नूतनां दिशां दर्शयिष्यति। नेशनल करियर सर्विस सङ्काशः डिजिटल पोर्टल इति माध्यमः युवजनेभ्य जीविका प्रदाने महत्वपूर्णां भूमिकां निर्वहन्ति। आगामिषु वर्षेषु वयं 7 कोटितोप्यधिकानां जीविकावसराणां सृजनस्य लक्ष्यं निधाय अग्रे वर्धामहे। बिहारे अद्य एनडीए संयुतेः महासंयुतेः च दलानां वरिष्ठनेतारः राज्य विधानसभा निर्वाचनानां प्रथमचरणस्य प्रचारे व्यस्ताः वर्तन्ते। प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य समस्तीपुरे एनडीए संयुतेः निर्वाचनाभियानस्य प्रारम्भम् अकरोत्। असौ समाजवादी नेतुः जननायकस्य कर्पूरी ठाकुरवर्यस्य रिक्थम् उल्लेखयन् प्रोक्तवान् यत् बिहारे विकासः, जीविका, सामाजिक न्यायश्च जवीयस्य गत्या अग्रे नेष्यन्ते। एतां जनसभां मुख्यमन्त्री नीतीशकुमारः, केन्द्रीयमन्त्री जीतन राम माझी चापि सम्बोधितवन्तौ। प्रधानमन्त्री बेगुसराय मध्ये एकाम् अपरामपि सभां सम्बोधयिष्यति। तत्रैव गृहमन्त्री अमितशाह अद्य सीवान जनपदे, बक्सर जनपदे च नैर्वाचनिक जनसभाः करिष्यति। अथ च कृषिमन्त्री शिवराज सिंह चौहानः गोपालगंजे एनडीए संयुतेः जनसभां सम्बोधयिष्यति। अपरत्र च महासंयुतेः मुख्यमन्त्री पदस्य प्रत्याशी तेजस्वी प्रसाद यादवः पटनायां पत्रकारैः सह प्रावोचत् यत् संविदा कर्मकराः स्थायीरूपेण नियोक्ष्यन्ते। राज्ये जीविकाहीनतायाः समस्या समाधानार्थं सुदृढ पदक्षेपाश्चापि उत्थापयिष्यन्ते। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि श्रुतिगम्यो भविष्यति। वित्तमन्त्री निर्मला सीतारामन् वर्या प्रावोचत् यत् जीएसटी इति वस्तुसेवा करस्य परिष्कृत कराधान प्रणाली इतोपि समुचिता, न्यायसंगता, विकासोन्मुखी च करिष्यते। सा अकथयत् यत् सर्वकारः करदातृणां जीवनं सरलीकर्तुं प्रतिबद्धः अस्ति। अद्य गाजियाबादे नूतनस्य जीएसटी भवनस्य उद्घाटनं कुर्वन्ती मन्त्रीवर्या प्रोक्तवती यत् अग्रिम मासस्य प्रथम दिनांकात् समारभ्य एका सरलीकृता जीएसटी पंजीकरण योजना समारप्स्यते। सा अकथयत् यत् येषाम् आवेदकानां मासिक करदेय राशिः 50,000+ 2,00,000 रूप्यकेभ्य न्यूना अस्ति तेभ्य त्रयाणाम् एव कार्यदिवसानाम् आभ्यन्तरे स्वचालित पंजीकरण सौविध्यं प्रदास्यते। सा अकथयत् यत् अनेन परिष्कारेण न्यूनातिन्यूनाः 90% नवीनाः आवेदकाः लाभान्विताः भविष्यन्ति। आन्ध्रप्रदेशे हैदराबाद नगरात् बेंगलुरु नगरं प्रति गच्छतः बसयानस्य मार्गे घटितायां दुर्घटनायां 19 यात्रिणः, एकः बाइक इति द्विचक्रिका चालकश्च मृताः सन्ति, नैके च व्रणिताः सूच्यन्ते। कल्लूर मण्डलस्य चिन्ना तेकुरु ग्रामं निकषा एषा दुर्घटना दुरापन्ना। प्रातः दुर्घटनास्थलस्य निरीक्षणं कुर्वता जनपदाधिकारिणा डॉ ए सिरी इत्यनेन सूचितं यत् प्रणीताः 12 यात्रिणः उपचारार्थं चिकित्सालयं नीताः, अन्येषां पीडितानां च अभिज्ञानं प्रचलति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या, उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी च दुर्घटनायां जातायां जनहानौ स्वकीयं दुःखं प्रकटितवन्तः। राष्ट्रपतिः द्रौपदी मुर्मू वर्या प्रावोचत् यत् 47-2000 यावत् विकसित भारतस्य लक्ष्यम् अवाप्तुं महिलानां सक्रिय सहभागिता नितान्तमेव आवश्यकी वर्तते। असौ अद्य केरलस्य एर्नाकुलम स्थिते सेंट टेरेसा महाविद्यालयस्य शताब्दी समारोहे अभिभाषते स्म। राष्ट्रपतिः उदैरयत् यत् यदा समाजस्य नेतृत्वं महिलाः कुर्वन्ति तदा समाजः अधिकः मानवीयः, प्रभावशाली च भवति। अमुना एतदपि प्रोक्तं यत् देशस्य जनसंख्यां सशक्तशक्तित्वेन परिवर्तितुं महिलानां योगदानम् अनिवार्यमस्ति। राष्ट्रपतिना केरलस्य ताः महिलाः स्मृताः याभिः राष्ट्रनिर्माणे सामाजिकेषु आर्थिकेषु च परिष्कारेषु उल्लेखनीयं योगदानम् आचरितम्। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् बहुपक्षवादस्य सशक्तरूपेण प्रवर्तनं, संयुक्तराष्ट्रमन्त्रस्य च समर्थनं विश्वशान्त्यै विश्वविकासाय च आवश्यकमस्ति। असौ संयुक्तराष्ट्रस्य 80तम्याः वर्षग्रन्थेः अवसरे नवदिल्ल्यां स्मारक प्रैषमुद्राङ्कनं प्रख्यापितवान्। डॉ जयशंकरः प्रत्यपादयत् यत् भारतं सर्वदा शान्ति सुरक्षा प्रगतीनाम् आदर्शानां कृते प्रतिबद्धं वर्तते। बहरीन देशे आयोजितासु एशिया युवक्रीडासु अन्तर 18-वर्षीयाणां कबड्डी स्पर्धायां भारतेन दलद्वयेऽपि स्वर्णपदकं समर्ज्य नैजं प्रभुत्वं स्थापितम्। कन्यकानां दलेन अन्तिमे चक्रे ईरान दलं 21 अंकान् विरुध्य 75 अंकैः पराभूतम्। अनेन विजयेन साकं पदतालिकायां भारतस्य स्थितिः उच्चकैः जाता अस्ति। इति वार्ताः।